इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः भारत इथियोपिया देशौ परस्परं अष्टसन्धिपत्राणि हस्ताक्षरितवन्तौ सम्बन्धाञ्च रणनीतिक सहभागित्वं यावत् अवर्धयताम् प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् वैश्विक दक्षिण क्षेत्रं स्वकीयं भविष्यं स्वयमेव लिखति प्रधानमन्त्री नरेन्द्रमोदी स्वकीयाया देशत्रयस्य यात्रायाः अन्तिमचरणे अद्य सायं ओमानदेशस्य मस्कट नगरं प्राप्स्यति नवदिल्ल्या बांग्लादेशस्य उच्चायुक्तः संसूचितः सहैव प्रतिवेशिदेशे निरन्तरं अधोगतिं प्रति गम्यमानं सुरक्षा वातावरणम् उद्दिश्य गभीरा चिन्ता व्यक्तीकृता भारतीय चलचित्रं होमबाउंड सर्वश्रेष्ठान्तराष्ट्रिय चलचित्र श्रेण्याम् ऑस्कर पुरस्काराय विचितं संजातम् अपि च भारत दक्षिण अफ्रीका देशयो मध्ये विंशति प्रतिविंशति अन्तराष्ट्रिय स्पर्धा अद्य लखनऊ नगरे सायं सार्ध सप्तवादने भविष्यति अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्रमोदी इथियोपिया देशस्य अदिस अबाबा नगरे संसदः संयुक्त सम्मेलनं सम्बोधितवान् प्रधानमन्त्री अवदत् यत् भारतं इथियोपिया इत्येतौ सम्मिल्य विश्वदृष्टिं धारयतः यत्र ग्लोबल साउथ इत्येतत् कस्यापि विरुद्धं न अपितु सर्वेषां कृते समुद्भवति सः अवदत् यत् ग्लोबल साउथ इतीदं स्वकीयं भाग्यं लिखति
The global south is writing its own destiny and India and Ethiopia share a vision for it. Our vision is of a world where the global south rises not against anyone but for everyone.
श्री मोदी अवदत् यत् भारतं इथियोपिया च क्षेत्रीय शान्त्यै सुरक्षायै च स्वाभाविक सहभागिनौ स्तः अपि च लोकतन्त्रं तयोः जीवनमार्गमस्ति ततः परं प्रधानमन्त्री स्वकीयायाः त्रिराष्ट्रयात्रायाः अन्तिमचरणे ओमानदेशं प्रति प्रस्थितवान् अफ्रीका देशस्य द्विदिवसीय यात्रायां प्रधानमन्त्री नरेन्द्रमोदी अदिस अबाबा नगरे इथियोपिया देशस्य समकक्षीयेन अबी अहमद अली इत्यनेन सह विस्तृतं वार्तालापम् अकरोत् भारत इथियोपिया देशयोः ऐतिहासिक सम्बन्धाः सामरिक सहभागित्वरूपेण वर्धितवन्तः सन्ति उभय देशौ अष्टसंख्याकेषु एमओयू इत्येतेषु अपि हस्ताक्षराणि कृतवन्तौ येषु स्ट्रेटेजिक पार्टनरशिप इत्यस्मिन् सम्बन्धानाम् उन्नतीकरणम् अपि अन्तर्भवति भारत इथियोपिया सहभागित्वस्य सुदृढीकरणाय तस्य योगदानस्य कृते वैश्विक राजनीतिज्ञ रूपेण तस्य दूरदर्शी नेतृत्वस्य च कृते प्रधानमन्त्रिणे नरेन्द्रमोदिने इथियोपिया देशस्य सर्वोच्च पुरस्कारं द ग्रेट ऑनर निशान ऑफ इथियोपिया इत्येतत् सम्मानं इथियोपिया देशस्य प्रधानमन्त्रिणा प्रदत्तम् प्रधानमन्त्री नरेन्द्रमोदी जॉर्डन इथियोपिया देशयोः यात्रां समाप्य अनन्तरं राष्ट्रत्रयस्य यात्रायाः अन्तिमे चरणे अद्य सायं ओमान देशस्य राजधानी मस्कट नगरं प्राप्तवान् ओमान राष्ट्रस्य राज्यप्रमुखस्य सुल्तान हैथम बिन तारिक इत्यस्य आमन्त्रणेन प्रधानमन्त्री ओमान देशं समागच्छत् प्रधानमन्त्रिणः यात्राविषयकीं सूचनां प्रदातुम् अस्माकं संवाददाता मस्कट नगरे ओमान देशस्य भारतीय राजदूतेन जी वी श्रीनिवासेन सह वार्तालापम् अकरोत् श्रीनिवासः अवदत् यत् उभय देशो आतंकवादस्य सर्वविधरूपाणां निन्दां कुर्वन्तौ एतत् विरुद्धं युद्धं कर्तुं च परस्परं संकल्पितौ स्तः सामरिकदृष्ट्या अपि उभौ परस्परम् अतीव महत्वपूर्णौ स्तः भारतम् अद्य भारते बांग्लादेशस्य उच्चायुक्तं रियाज हमीदुल्ला इत्येतम् आहूय बांग्लादेशे सतत पतनशीलस्य सुरक्षा वातावरणस्य विषये भारतस्य प्रबलचिन्तां प्रकटितवान् एकस्मिन् वक्तव्ये विदेशमन्त्रालयः अवदत् यत् बांग्लादेशस्य उच्चायुक्ताय केषाञ्चित् अतिवादिनां तत्त्वानां कुकृत्यानि संसूचितानि ये ढाकानगरे भारतीय मिशन् इत्येतत् विरुध्य सुरक्षाव्यवस्थां निर्मातुं योजनां घोषयन्ति स्म सः स्पष्टीकृतवान् यत् बांग्लादेशे सद्य एव घटितानां घटनानां विषये अतिवादिभिः तत्त्वैः कल्पितं मिथ्याविवरणं भारतं पूर्णतया निराकरोति मन्त्रालयः एतादृशीं परिस्थितिं दुर्भाग्यपूर्णाम् इति अमन्यत अपि च अन्तरिम सर्वकारेण समग्रान्वेषणं न कृतम् अस्ति न च घटनानां विषये भारतेन सह सार्थकसाक्ष्यानाम् आदानं प्रदानं च कृतमस्ति संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारत परिवर्तनार्थं परमाणूर्जा याः सुस्थिर उपयोगः तथा प्रगतिविधेयकं 2025 इत्येतत् लोकसभायां चर्चितुम् अंगीकर्तुं च स्वीकृतमस्ति। देशवासिनां कल्याणार्थं परमाणु ऊर्जायाः आयनीकरण विकिरणस्य च विकासः अस्य विधेयकस्य लक्ष्यमस्ति। अस्य सुरक्षितोपायोगाय सुदृढ विनियामक संरचना अपि प्रदातुं प्रयतते। विधेयकं परमाणूर्जा विनियामक मण्डलस्य परमाणु ऊर्जा निवारण परामर्श परिषदः च स्थापनं कर्तुं प्रयतते। विधेयकम् उपस्थापयन् परमाणु ऊर्जा राज्यमन्त्री डॉ जितेन्द्र सिंह वर्यः अवदत् यत् सम्पूर्णं विश्वं स्वच्छोर्जां प्रति गच्छत् अस्ति तथा च सर्वकारेण 47-2000 पर्यन्तं 100 गीगावाट परिमितस्य परमाणूर्जा क्षमतां प्राप्तुं लक्ष्यं निर्धारितमस्ति। धीरज घैवन इत्यनेन निर्देशितं होम बॉण्ड इति भारतीय चलचित्रं सर्वश्रेष्ठ अन्ताराष्ट्रिय चलचित्रम् इत्यस्मिन् वर्गे 98वें ऑस्कर इति पुरस्काराय चितमस्ति। जयशंकरः अद्य भूटान देशस्य विदेशमन्त्रिणे लियोनपो डी एन धुंगेल इत्यस्मै भूटान देशस्य जनानां च कृते राष्ट्रिय दिवसस्य ग्योलोंग दुचेन इत्यस्य शुभाशयाः प्रेषितवान्। सामाजिक संदेश माध्यमेन डॉ जयशंकरः अवदत् यत् भारतं द्वयोः देशयोः मध्ये विशिष्टं अद्वितीयं च सहभागित्वं निरन्तरं विकसितुं प्रतिबद्धमस्ति। राष्ट्रपति द्रौपदी मुर्मुवर्या अद्य अपराह्णे हैदराबाद नगरस्य हंकिमपेट विमानस्थानकं प्राप्तवती। राष्ट्रपतिवर्या आन्ध्रप्रदेशस्य तिरुपति नगरात् वार्षिक दक्षिण प्रवासं समागत्य सिकन्दराबाद जनपदस्य बोलरम नगरस्य राष्ट्रपति निलयं प्रति प्रस्थितवती। राष्ट्रपति कार्यालयः 6 दिनानि यावत् राष्ट्रपति निलयम् इत्यस्मात् अस्य मासस्य 22-दिनांकपर्यन्तं कार्यं करिष्यति। राष्ट्रपतिवर्या अस्मिन् मासे 19-दिनांके राज्य लोकसेवा आयोगानां अध्यक्षाणां राष्ट्रिय सम्मेलनस्य उद्घाटनमपि करिष्यति। सहैव अस्य मासस्य 20-दिनांके गच्चिबौली नगरे ब्रह्मकुमारी जनैः आयोजिते भारतस्य कालातीत ज्ञानं शान्ति प्रगत्योः प्रशस्त मार्गम् इत्यस्मिन् विषये सम्मेलने भागं ग्रहीष्यति। तेलंगाना राज्यस्य राज्यपालः जिष्णुदेव वर्मा उपमुख्यमंत्री भट्टी विक्रमार्कः भविष्यमाणः मंत्री अनसूया सीतक्का राज्यस्य मुख्य सचिवः के रामकृष्ण राव डीजीपी शिवधर रेड्डी च विमानस्थानके राष्ट्रपति वर्यायाः स्वागतम् अकुर्वन्। सशस्त्र सेनायाः अनेके वरिष्ठाधिकारिणः अपि तत्र उपस्थिताः आसन्। भारतस्य हस्तशिल्पस्य वस्त्राणां च निर्याते गतवर्षस्य समानमासस्य अपेक्षया अस्मिन् वर्षे नवम्बर मासे 9.4% वृद्धि संजाता। केन्द्रसर्वकारः अवदत् यत् अद्य पर्यन्तं भारतीय विशिष्ट परिचय प्राधिकरणस्य UADIA इत्यस्य डेटाबेस इत्यस्मात् आधारकार्डधारकाणां दत्तांशनियमानां किमपि उल्लंघनं न अभवत्। सूचना प्रौद्योगिकी इत्यस्य विभागस्य राज्यमंत्री जितिन प्रसादः अद्य लोकसभायाम् एकस्य प्रश्नस्य लिखिते प्रत्युत्तरे एतत् संसूचितवान्। सः अवदत् यत् आधारः विश्वस्य बृहत्तमा बायोमेट्रिक परिचय व्यवस्था अस्ति यत्र प्रायः 34.1 crore जीवन्तः आधारधारकाः सन्ति। श्रीप्रसादः समसूचयत् यत् आधारमाध्यमेन 16,000 crore प्रमाणनं सम्पन्नं जातमस्ति। भारत अर्जेंटीना देशयो मध्ये द्वैपाक्षिक कृषि अनुसंधान प्रौद्योगिक्याः आदान प्रदानाय अद्य नवदिल्ल्यां वर्षत्रयस्य कार्ययोजनायां हस्ताक्षरं संजातम्। भारतीय कृषि अनुसंधान परिषदः अपि च अर्जेंटीना देशस्य राष्ट्रिय कृषि तंत्रज्ञान संस्थानस्य मध्ये हस्ताक्षरिता एषा कार्ययोजना प्राकृतिक संसाधन प्रबन्धनम् शून्य कृषि यांत्रिकीकरणम् सूक्ष्म सिंचनम् उर्वरकम् चेत्यादीनां सुस्थिर कृषि विज्ञान क्षेत्रे सहयोगं स्थापयिष्यति। पुरुष क्रिकेट स्पर्धायां भारत दक्षिण अफ्रीका देशयोः मध्ये 20-20 अन्ताराष्ट्रिय स्पर्धा अद्य लखनऊ नगरे सायं 7:30 भारत रत्न श्री अटल बिहारी वाजपेयी एकानां अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे भविष्यति इति वार्ताः।